ओम नमो भगवते वासुदेवाय। अथ सप्तसप्ततितमोऽध्यायः। श्रीशुक उवाच। सतूपस्पृश्य सलिलं दंशितो धृतकार्मुकः, नयमां द्युमतः पार्श्वं वीरस्येत्याह सारथिं, विषमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः, प्रतिहत्य प्रत्यविध्यन् नाराचैरष्टभिः स्मयन्, चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत्, द्वाभ्यां धनुश्च केतुं च शरेणान्येन वैशिरः, गदसात्यकिसां बाद्या जग्नुः सौभपतेर्बलम्, पेतुः समुद्रे सौभेया सर्वे सञ्छिन्नकन्धराः, एवं यदूनां शाल्वानां निघ्नतामितरेतरम्, युद्धं त्रिणवरात्रं तदभूत्तुमुलमुल्बणम्, इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना, राजसूये स निर्वृत्ते शिशुपाले च संस्थिते, कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथां, निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ, आह चाहमिहायात आर्यमिश्राभिसङ्गतः, राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम, वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम्, सौभं च साल्वराजं च दारुकं प्राह केशवः, रथं प्रापय मे सूत साल्वस्यान्तिकमाशु वै, सम्भ्रमस्तेन कर्तव्यो मायावी सौभराडयम्। इत्युक्तश्चोदयामास रथमास्थाय दारुकः, विशन्तं ददृशु सर्वे स्वे परे चारुणानुजम्, शाल्वश्च कृष्णमालोक्य हतप्राय बलेश्वरः, प्राहरत् कृष्णसूताय शक्तिं भीमरवामृधे, तामापतन्तीं नभसि महोल्कामिव रंहसा, भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्, तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खेभ्रमत्, अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः, शाल्वः शौरेस्तु दोसव्यं ससार्ङ्गं शार्ङ्गधन्वनः, बिभेदन्यपतद्धस्तात् शार्ङ्गमासीत् तदद्भुतम्, हाहाकारो महानासीत् भूतानां तत्र पश्यताम्, विनद्य सौभराडुच्चैरितमाह जनार्दनम्, यत्त्वया मूढनः सख्युर्भ्रातुर्भार्या हृतेक्षताम्, प्रमत्तः स सभा मध्ये त्वया व्यापादितः सखा, तं त्वाद्य निशितैर्बाणैरपराजितमानिनम्, नयाम्य पुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः। श्रीभगवानुवाच। वृथा त्वं कथसे मन्दनपश्यस्यन्ति केऽन्तकम्, पौरुषं दर्शयन्ति स्म शूरान् बहुभाषिणः, इत्युक्त्वा भगवान् शाल्वं गदया भीमवेगया, तताडजत्रौ संरब्धः स च कम्पेवमन्नसृक्, गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत, ततो मुहूर्तागत्य पुरुषः शिरसाच्युतम्, देवक्या प्रहितोऽस्मीति नत्वा प्राहवचो रुदन्, कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल, बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः, निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः, विमनस्को घृणी स्नेहात् बभासे प्राकृतो यथा, कथं रामम सम्भ्रान्तं विजित्वा जेयं सुरासुरैः, शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः। इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः, वसुदेवमिवानीय कृष्णं चेदमुवाच सः, एष ते जनिता तातो यदर्थमिह जीवसि, वदिष्ये वीक्षतस्ते मूमीषश्चेत् पाहि बालिश, एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः, उत्कृत्य शिर आदाय खस्थं सौभं समाविशत्, ततो मुहूर्तं प्रकृतावुपप्लुतः, स्वबोध आस्ते स्वजनानुसङ्गतः, महानुभावस्तदबुध्य दासुरीं मायां च साल्वप्रसृतां मयोदितां, न तत्र दूतं न पितुः कलेवरम्, प्रबुद्धाजौ समपश्यदच्युतः, स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः, एवं वदन्ति राजर्षे ऋषयः केचनान्विताः, यत्स्ववाचो विरुध्येत नूनं तेन स्मरन्त्युत, क्व शोकमोहौ स्नेहो वा भयं वा येज्ञसम्भवाः, क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः, यत्पादसेवोर्जितयात्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम्, लभन्त आत्मीयमनन्तमैश्वरम्, कुतो नुमोहः परमस्य सद्गतेः, तं शस्त्रपूगैः प्रहरन्तमोजसा साल्वं शरैः सौरिरमोघविक्रमः, विद्वाच्छिनत्वर्म धनुशिरोमणिम् सौभम् च शत्रोर्गदयारुरोजः तत्कृष्णहस्ते ऋतया विचूर्णितम् पपाततो ये गदया सहस्रधा विसृज्य तद्भूतलमास्थितो गदा मुद्यम्य साल्वोच्युतमभ्यगाद्रुतम् आधावतः सगदम् तस्य बाहुम् भल्लेन छित्त्वा स रथाङ्गमद्भुतम् वधाय साल्वस्य लयार्कसन्निभम् बिभ्रद्बभौ सार्क इवोदयाचलः जहारतेनैव शिरः सकुण्डलम् किरीटयुक्तम् पुरुमायिनो हरिः वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् तस्मिन्निपतिते पापे सौभे जगदया हते नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः सखीनामपचितिम् कुर्वन् दन्तवक्त्रो रुषाभ्यगात् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।